इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका वन्दना कश्यपः। आदौ मुख्य वार्ताः। विदेशमन्त्री डॉ एस जयशंकर तस्य ईरानी समकक्षी सैयद अब्बास अराक्ची च स्वस्य अन्तिम संवादे नौवहनस्य सुरक्षायाः भारतस्य ऊर्जा सुरक्षायाः च विषयेषु चर्चां कृतवन्तः। मुंबई पोताश्रये खनिज तैल पूर्णस्य पोतस्य सुरक्षितं आगमनम् अभवत्। गतदिने एकः विशालः खनिज तैल पोतः मुंबई नगरं प्राप्तवान्। ईरान देशस्य सामुद्रिक आक्रमणेन पश्चिम एशिया क्षेत्रे संघर्षः वर्धितम्। अस्मिन् संघर्षे एकः भारतीय नाविकः मृतः। राष्ट्रपति द्रौपदी मुर्मू महोदया कृषिक्षेत्रे महिलानां भूमिकां वर्धयितुम् उद्घोषं कृतवती नवदेहली। भारतीय ऋतुविज्ञान विभागेन श्वः गुजरात राज्ये उष्ण तरंगस्य स्थितिः अनुमानिता अस्ति। अथ वार्ताः विस्तरेण। विदेशमंत्री डॉ एस जयशंकर तस्य ईरानी समकक्षी सैयद अब्बास अराक्ची च स्वस्य अंतिम संवादे नौवहनस्य सुरक्षायाः भारतस्य ऊर्जा सुरक्षायाः च विषयेषु चर्चां कृतवन्तः। ईरान देशस्य सामुद्रिक आक्रमणेन पश्चिम एशिया क्षेत्रे संघर्षः वर्धितः। अस्मिन् संघर्षे एकः भारतीय नविकः मृतः। ईरान देशस्य बसरा समीपे अमेरिका देशस्य तैलपोतस्य उपरि जाते आक्रमणे एकः भारतीयः वीरगतिं प्राप्तवान्। ईरान स्थितेन भारतीय दूतावासेन उक्तं यत् पोते स्थिताः अन्ये 15 भारतीयाः सुरक्षिताः सन्ति, तेषाम् उद्धारं कृतः च। अपरपक्षे अद्य प्रातः दुबई नगरस्य क्रीक हार्बर समीपे अपि द्रोण आक्रमणम् अभवत्, किन्तु तत्र कोऽपि हतः न जातः। अमेरिका राष्ट्रपतिः डोनाल्ड ट्रम्प् संकेतितवान् यत् एषः युद्धः शीघ्रमेव समाप्तो भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी श्वः असम राज्यस्य गुवाहाटी नगरात् पीएम किसान योजनायाः 22 अनुभागपूर्तिं विमोचयिष्यति। अद्य प्रातः नवदेहल्याः वार्तासम्मेलने कृषिकल्याणमन्त्री शिवराज सिंह चौहानः इत्यस्य घोषणाम् अकरोत्। सः अवदत् यत् प्रधानमन्त्री प्रायः 18,000 कोटिरूप्यकाणि प्रत्यक्षलाभ हस्तान्तरणप्रक्रियया प्रायः 9 कृषकाणां कोषेभ्यः प्रेषयिष्यति। अनेन सहैव सर्वकारेण भारतविस्तार इति एआई आधारित डिजिटल मञ्चस्य प्रथमचरणस्य शुभारम्भः कृतः, येन कृषकाः कृषि सम्बद्धान् प्रश्नान् समाधातुं शक्ष्यन्ति। राष्ट्रपति द्रौपदी मुर्मू महोदया कृषिक्षेत्रे महिलानां भूमिकां वर्धयितुम् उद्घोषं कृतवती नवदेहलीनगरे। अद्य कृषि खाद्य प्रणाल्याः महिलानां भूमिका इति त्रिदिवसीयस्य वैश्विक सम्मेलनस्य उद्घाटनं कृत्वा राष्ट्रपतिः उक्तवती यत् नीति निर्धारणे निर्णय प्रक्रियासु नेतृत्व पदेषु च महिलानां सहभागिता आवश्यकी अस्ति।
फसल को बनो काटने प्रसंस्करण करने और हाट बाजार में ले जाने जैसे सभी गतिविधियों में महिलाएं महत्वपूर्ण भूमिका निभाती हैं। मछली पालन, मधुमक्खी पालन, पशु पालन, वन्य उपजों के समुचित उपयोग तथा कृषि पर आधारित उद्यमों को चलाने जैसे अनेक क्षेत्रों में हमारी माताएं, बहनें और बेटियां अथक परिश्रम करती हैं। वे कृषि अर्थव्यवस्था को अमूल्य योगदान देते हैं।
राष्ट्रपतिः उक्तवती यत् सर्वेषु स्तरेषु महिलानां सक्रियता लैङ्गिकसमावेशी कृषिविकासं वर्धयिष्यति। सा संसूचितवती यत् विश्वेः जनाः ग्रहाः समृद्धिः शान्तिः सहभागिता चेत्येतेषु 5 समानं बलं दातव्यम्। कृषिक्षेत्रं समेत्य सर्वेषु क्षेत्रेषु महिलानां समावेशनेन एषः संसारः अधिकं संवेदनशीलः सामञ्जस्यपूर्णः च भविष्यति। कृषिकल्याणमन्त्री शिवराज सिंह चौहानः अवदत् यत् एषः मञ्चः राष्ट्रस्य अनुसन्धान क्षेत्रे महिलाकेन्द्रित कार्येभ्यः गतिं प्रदास्यति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चल दूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। राज्यसभायाः नेता जेपी नड्डा जम्मू काश्मीरस्य पूर्व मुख्यमंत्री फारूक अब्दुल्ला महोदयस्य उपरि जातस्य आक्रमणस्य विषये उच्चस्तरीयान्वेषणं कर्तुम् आश्वासनं दत्तवान्। विपक्षस्य नेता मल्लिकार्जुन खड़गे महोदयः शून्यकाले जम्मू कश्मीरे नियम व्यवस्थायाः स्थितिं फारूक अब्दुल्ला महोदयस्य उपरि प्राणघातक आक्रमणस्य च विषयम् उत्थापितवान्। तस्य उत्तरं यच्छन् नड्डा महोदयः अवदत् यत् सर्वकारः एतं विषयम् अतिगम्भीरतया गृह्णाति, किन्तु सः विपक्षस्य आलोचनां कुर्वन् अवदत् यत् एतस्याः घटनायाः राजनीतिकरणं नैव करणीयम्। गतसायंकाले जम्मूनगरे एकस्मिन् विवाह समारोहे फारूक अब्दुल्ला महोदयस्य उपरि एकेन भिषुण्डिधारिणा गोलिकाप्रहारः कृतः, किन्तु सः चमत्कारिकरूपेण सुरक्षितः अस्ति। भारतीय ऋतुविज्ञानविभागेन श्वः गुजरातराज्ये उष्णतरङ्गस्य स्थितिः अनुमानिता अस्ति। श्वः अरुणाचलप्रदेश असम मेघालयराज्येषु च प्रचण्डवृष्टिः भविष्यति इति संस्थया पूर्वानुमानितम् अस्ति। भारतीय ऋतुविज्ञानविभागानुसारम् अग्रिमेषु त्रिषु दिनेषु छत्तीसगढ़ उपहिमालयीय पश्चिम बंग विदर्भ सिक्किम नागालैंड मणिपुर मिजोरम त्रिपुरा राज्येषु च मेघावृष्टेः विद्युतस्य च आशंका अपि वर्तते। पूर्व ईशान्य भारते च तापमानं द्वित्रि डिग्री पर्यन्तं वर्धेत इत्यपि अपि अनुमानितम्। 26,000 वर्षस्य स्विस ओपन बैडमिंटन प्रतिस्पर्धायां भारतस्य किरण जॉर्ज इत्येषः गतरात्रौ पुरुष एकलस्य प्रागुपान्त्यचक्रे हांगकांग देशस्य जेसन गुनावन इत्यनेन सह स्पर्धयिष्यति। किरणः गतरात्रौ सिंगापुरस्य पूर्व विश्वविजेता लो किन यू इत्येतं पराजयत्। अद्य रात्रौ चीन देशस्य गाओ जिया जुआन तथा वू मेंग यिंग इत्येतौ द्वयं सम्मुखी करिष्यति। महिला एकल क्रीडायां थाईलैंड देशस्य पोर्णपावी चोंग वोंग इत्येषा मालविका बसोंड इत्येनं द्वारा पराजयत्। प्रधानमंत्री नरेन्द्र मोदी श्वः असमराज्यस्य गुवाहाटी नगरात् पीएम किसान योजनायाः 22वें अनुभागपूर्तिं विमोचयिष्यति। अद्य प्रातः नवदेहल्यां वार्ता सम्मेलने कृषि कल्याण मंत्री शिवराज सिंह चौहान इत्यस्य घोषणाम् अकरोत्। सः अवदत् यत् प्रधानमंत्री प्रायः 18,000 कोटि रूप्यकाणि प्रत्यक्ष लाभ हस्तान्तरणं प्रक्रियया प्रायः 9 कोटि कृषकाणां कोषेभ्यः प्रेषयिष्यति। अनेन सहैव सर्वकारेण भारत विस्तार इति एआई आधारित डिजिटल मंचस्य प्रथमचरणस्य शुभारम्भं कृतः, येन कृषकाः कृषिसम्बद्धान् प्रश्नान् समाधातुं शक्ष्यन्ति। ईरान देशस्य सामुद्रिक आक्रमणेन पश्चिम एशिया क्षेत्रे संघर्षः वर्धितः। अस्मिन् संघर्षे एकः भारतीयः नागरिकः मृतः। ईरान देशस्य बसरा समीपे अमेरिका देशस्य तैलपोतस्य उपरि जाते आक्रमणे एकः भारतीयः वीरगतिं प्राप्तवान्। ईरान स्थितेन भारतीय दूतावासेन उक्तं यत् पोते स्थिताः अन्ये 15 भारतीयाः सुरक्षिताः सन्ति, तेषाम् उद्धारं कृतः च। अपरपक्षे अद्य प्रातः दुबई नगरस्य क्रीक हार्बर समीपे अपि द्रोण आक्रमणम् अभवत्, किन्तु तत्र कोऽपि हतः न जातः। अमेरिका राष्ट्रपति डोनाल्ड ट्रम्प संकेतिकवान् यत् एषः युद्धः शीघ्रमेव समाप्तो भविष्यति इति वार्ताः।